नम सर्वेभ्यः अद्य कोविड वर्गस्य पञ्चमः पाठः एप्रिल मासस्य पञ्चमः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो वयं शुक्रवासरस्य वर्गेषु समासान् अधीयानाः स्मः तत्र समासानां विषये केचन प्राथमिकाः अंशाः अस्माभिः ज्ञाताः किं किं दृष्टं समासः इत्युक्ते अनेकस्य पदस्य एकपदीभवनं यत्र बहूनि पदानि भवन्ति मिलित्वा अनन्तरम् एकमेव पदं भवति तस्य समासः इति नाम भवति समासः इत्युक्ते तत्र कानिचन पारिभाषिकपदानि भवन्ति समस्तपदं विग्रहवाक्यं पूर्वपदम् उत्तरपदम् इति एतेषामर्थः अस्माभिः ज्ञातः पदानां मेलनेन नूतनं यत् पदं भवति तत् समस्तपदम् इति उच्यते समस्तपदस्य अर्थं बोधयितुं यद्वाक्यं प्रयुज्यते तदेव विग्रहवाक्यं समासस्य प्रथमावयवः पूर्वपदम् इत्युच्यते समासस्य चरमावयवः अथवा अन्तिमावयवः उत्तरपदम् इति उच्यते समासे सर्वदा अर्थस्य प्राधान्यं भवति अर्थम् आश्रित्य एव समासः वक्तुं शक्यते अतः एकस्यैव समस्तपदस्य बहुधा विग्रहः भवितुम् अर्हति अर्थम् आश्रित्य इति दृष्टवन्तः लोकनाथः इति उदाहरणमासीत् तत्र लोकस्य नाथः लोकनाथः राजा इत्यपि भवति लोकः नाथः यस्य सः लोकनाथः भिक्षुकः इत्यपि अर्थः भवति अतः अर्थं विना समासस्य विग्रहः वक्तुं न शक्यते समासेषु केचन सामान्यनियमाः अपि अस्माभिः दृष्टाः समासः सुबन्तानाम् एव भवति तिङन्तस्य समासः न भवति सामान्यतः द्वयोर्द्वयोरेव समासः यत्र दीर्घं पदमस्ति तत्रापि आदौ द्वयोः समासः अनन्तरं तस्य समस्तपदस्य अन्येन समासः इत्येवं क्रमेण कुर्मः इति ज्ञातवन्तः परस्पर अन्वयः अस्ति चेदेव समासः भवति इत्यपि ज्ञातम् समासप्रभेदाः स्थूलरूपेण दृष्टाः अद्य पुनः पश्यामः अनन्तरं समासप्रक्रिया यत्र विग्रहवाक्यं दीयते तस्य समासः कर्तव्यः चेत् कथं केन क्रमेण करणीयम् इति ज्ञातवन्तः आदौ पूर्व उत्तरपदयोः प्रातिपदिकं स्वीकरणीयम् उभयोः पदयोः प्रातिपदिकं स्वीकृत्य ततः तयोः मध्ये सन्धेः अवकाशः अस्ति चेत् सन्धिः कर्तव्यः अनन्तरं समस्तपदस्य किं लिङ्गं किं वचनं का विभक्तिः इति निर्णेतव्यम् तदनुगुणं समस्तपदं प्रयोक्तव्यं भवति यदा वाक्ये प्रयोगः क्रियते तदा का विभक्तिः इति चिन्तनीयम् यदि केवलं पदम् एव उच्यते तर्हि सामान्यतः प्रथमाविभक्तौ वदामः अथवा राज्ञः पुत्रः राजपुत्रः इति सामान्यतः समासस्य उदाहरणं यदा कथयामः तदा प्रथमाविभक्तौ एकवचनान्तत्वेन एव कथयामः किन्तु एतत् स्मर्तव्यं सामान्यतः समस्तपदानां सर्वासु विभक्तिषु सर्वेषु वचनेषु रूपाणि भवन्ति यथा रामः रामौ रामाः इत्यादि एवं राजपुत्रः राजपुत्रौ राजपुत्राः हे राजपुत्र हे राजपुत्रौ हे राजपुत्राः राजपुत्रं राजपुत्रेण राजपुत्राय राजपुत्रस्य राजपुत्रे इति सर्वासु विभक्तिषु सर्वेषु वचनेषु रूपाणि भवन्ति अर्थम् आश्रित्य तेषाम् उपयोगः कर्तव्यः राजपुत्रः गच्छति राजपुत्रं पश्यामि राजपुत्रेण कृतं राजपुत्राय देहि एवं यदा वाक्ये प्रयोगः क्रियते तदा वाक्यस्य अर्थानुगुणं विभक्तेः उपयोगः कर्तव्यः सामान्यतः प्रथमाविभक्तिरूपम् उच्यते एवं कदाचित् अपवादः भवति किन्तु सामान्यतः इयं स्थितिः एवं वचनविषये अपि केचन पृष्टवन्तः कथं वचनस्य निर्णयः क्रियते इति सामान्यतः यः पदार्थः अस्ति कति पदार्थाः समस्तपदेन उच्यन्ते इत्युक्ते राज्ञः पुत्रः इत्युक्ते सः एकः एव राजपुत्रः अतः एकवचनं यदि राज्ञः बहवः पुत्राः सन्ति तेषां विषये उच्यते तर्हि बहुवचनं राजपुत्राः इति रामलक्ष्मणौ रामः एकः अस्ति लक्ष्मणः एकः अस्ति अतः द्विवचनं रामलक्ष्मणौ यदि बहवः सन्ति रामलक्ष्मणभरतशत्रुघ्नाः तत्र बहुवचनं सामान्यव्यवस्था सरला एव विशेषाः सन्ति अपवादाः सन्ति तत्र तत्र जानीमः लिङ्गविषये अपि किं लिङ्गं भवति इति तस्मिन् तस्मिन् समासे अहं वदामि कथं लिङ्गस्य ज्ञानं भवति इति सामान्यतः एतं क्रमम् आश्रित्य समासः करणीयः इति ज्ञात्वा अग्रे गच्छामः गृहकार्ये क्रमानुगुणं समस्तपदं कुरुत इति आसीत् कानिचन वाक्यानि यत्र विग्रहः आसीत् तस्य एवं क्रमम् आश्रित्य आदौ प्रातिपदिकम् अनन्तरं सन्धिः ततः लिङ्गविभक्तिवचननिर्णयः ततः समस्तपदम् इति अत्र प्रथमं वाक्यमासीत् परमः ईश्वरः पार्वत्याः पतिः तत्र परमः ईश्वरः इति एकः समासः पार्वत्याः पतिः इति अपरः ये उत्तराणि वक्तुमिच्छन्ति हस्तमुन्नयन्तु शुभश्री विश्वनाथ
नमस्ते भगिनि परमेश्वरः पार्वत्याः पतिः
पार्वत्याः पतिः इत्यत्र
समस्तवाक्यं
भगिनि तत्रापि कर्तुं शक्यते क्रियते चेत् किं भवति पार्वत्याः पतिः सीतायाः पतिः सीतापतिः पार्वतीपतिः कथं क्रमः परमः ईश्वरः इत्यत्र परम ईश्वर प्रातिपदिकद्वयम् तत्र कः सन्धिः भवति
परमेश्वरः गुणसन्धिः
गुणसन्धिः परमेश्वर इति अकारान्तं प्रातिपदिकम् अनन्तरं किं लिङ्गम् पुल्लिङ्गं वचनं
एकवचनं
एकवचनं विभक्तिः
प्रथमाविभक्तिः
पुल्लिङ्गं प्रथमाविभक्तिः एकवचनम् अतः परमेश्वर इत्यस्य परमेश्वरः इति भवति अत्र पार्वत्याः पतिः इति स्थिते पार्वती पति इति प्रातिपदिकं सन्धिः नास्ति अत्रापि समानं पुल्लिङ्गं प्रथमाविभक्तिः एकवचनम् अतः परमेश्वरः पार्वतीपतिः अत्र परिवर्तितमस्ति किन्तु परमेश्वरः पार्वतीपतिः इति उत्तरं सम्यक् पीतम अंबरम यस्य सह तम विष्णुम नमामि इति वाक्यम अस्ति। श्रीराम महोदय न श्रूयते महोदय।
भगिनी श्रूयते वा?
श्रूयते।
पीतम अंबरम यस्य सह विष्णुं नमामि। पीतम अंबरम यस्य सह बहुव्रीही समासः, अतः पीतांबरः। पीतांबरः इति विग्रहवाक्यं, किन्तु अनन्तरं द्वितीयवचने द्वितीयविभक्तौ अस्ति विष्णुं इति, अतः पीतांबरम पीतमंबरम पीतांबरम विष्णुं नमामि इति भवति।
सम्यक्। सो पीतम अंबरम, तत्र पीत अंबर इति प्रातिपदिकम्। पीत अंबर कः संधिः भवति?
सवर्ण दीर्घ संधि।
सवर्ण दीर्घ संधिः पीतांबर, पुनः अकारान्तम् अस्ति, तत्र विष्णुः अस्ति इत्यतः पुल्लिंगं द्वितीया विभक्तिः विष्णुं नमामि। विष्णुं इत्यस्य विशेषणम्, अतः इदमपि द्वितीया विभक्तिः एकवचनम्। पुल्लिंगं द्वितीया विभक्तिः एकवचनम्, पीतांबरं विष्णुं नमामि। सम्यक्। अनन्तरं जनैः विहीनं गृहं न शोभते इति अग्रिमः समासः। ज्योति भगिनि
श्रूयते वा?
श्रूयते।
प्रातिपदिकं जन विहीन, नो संधि, संधि न भवति,
संधिः नास्ति,
नास्ति। द्वितीयविभक्ति एकवचनं, सो जनविहीनं गृहं न शोभते।
नपुंसकलिङ्गं गृहम् इत्यस्य तत्र प्रथमा विभक्तिः एव, यतोहि गृहं शोभते, गृहं न शोभते इति कर्तृपदम्, अतः प्रथमा विभक्तिः। नपुंसकलिङ्गे प्रथमा विभक्तौ एकवचनं, जनविहीनं गृहं न शोभते, यस्मिन् गृहे जनाः एव न सन्ति तादृशं गृहं सम्यक् न भवति इत्यर्थः। जनविहीनं गृहं न शोभते। अग्रिमं पीतं क्षीरं यैः ते बालाः क्रीडितुं गताः। पद्मा भगिनी You have to unmute yourself.
Kshiraha balaha.
Samyak.
Bahuvachanam.
Uttamam. So, pita kshira iti pratipadikam. Sandhihi nasti. Balaha pullingam prathamavibhaktihi bahuvachanam. अतः पीतक्षीराः, रामः रामौ रामाः, पीतक्षीराः बालाः क्रीडितुं गताः। सम्यक्। अर्थात् बालकाः क्षीरं पीत्वा क्रीडार्थं गतवन्तः इत्यर्थः। पीतं क्षीरं यैः, यैः बालैः क्षीरं पीतं ते बालाः क्रीडितुं गताः इत्यर्थः। अत्र एकः प्रश्नः, क्षीरपीताः इत्यपि भवति वा इति। न, तत्र समासे नियमाः सन्ति, किं पदं पूर्वपदं भवति, किम् उत्तरपदं भवति इति। अतः अत्र पीतक्षीराः इत्येव भवति। बहुव्रीहिसमासे क्तप्रत्ययान्तः शब्दः पूर्वम् एव भवति, पीतक्षीरः इति। अपरः एकः अंशः पुनः बहुव्रीहिसमासे वदामि, बहुव्रीहिसमासः विशेषणं भवति। विशेषण विशेष्य विषये पूर्वमेव अधीतमस्ति परिचयस्तरे एव. बहुव्रीहि समासः विशेषणम्, अतः कस्य विशेषणम् इति दृष्ट्वा लिङ्गं विभक्तिः वचनं च तत्र निश्चेतव्यं भवति. बालाः इत्यस्ति पुल्लिङ्गे प्रथमा विभक्तौ बहुवचनम्, अतः पीतक्षीराः बालाः. विष्णुं नमामि इत्युक्ते विष्णुम् इत्यत्र द्वितीया विभक्तिः एकवचनम्. तत्र पीताम्बरं विष्णुम् इति उपयुज्यते. तदेकं स्मर्तव्यं, बहुव्रीहिसमासे समस्तपदं विशेषणं भवति, अतः लिङ्गविभक्तिवचनार्थं विशेष्यं दृष्ट्वा निर्णयः कर्तव्यः. अत्र एकः प्रश्नः अस्ति, प्लीज़ एक्सप्लेन् वै समासः इस् नाट् देर्, कुत्र समासः नास्ति इति प्रश्नः. कः प्रश्नः? ओके, यू केन् टैप् युर् क्वश्चन् अगेन्. अग्रे गच्छामः, अग्रिमं वाक्यमस्ति, राजा चोरस्य शिरसः छेदं कर्तुं भटान् आदिष्टवान्. शिरसः छेदं कर्तुं, तत्र शिरसः छेदम् इति विग्रहः. विजयश्री.
यस्, नमस्ते. शिरस् इस् प्रातिपदिकं, छेद
छेद, सम्यक्, शिरस् छेद
छेद. देर् इस् सन्धि, चत्वसन्धि, शिरस् छेद.
सम्यक्, आमां.
नपुंसकलिङ्गं द्वितीय विभक्ति एकवचनं, सो इट् बिकम्स् शिरश्छेदम्. राजा चोरस्य शिरश्छेदं कर्तुं भटान् आदिष्टवान्. इस् इट् करेक्ट्?
सम्यक्, वाक्यं शुद्धं. पुल्लिङ्गं, छेदः इति पुल्लिङ्गं, पुल्लिङ्गे या द्वितीया विभक्तिः एकवचनं, शिरश्छेदम् इति भवति.
राजा शिरस् ओन्ली इन्टु कन्सिडरेशन् फर् नपुंसकलिङ्गं.
सो वि विल् सी टुडे, तत्र उत्तरपदस्य लिङ्गं भवति, अतः शिरश्छेदः. राजा चोरस्य शिरश्छेदं कर्तुम्, अत्र सन्धिः सकारः अस्ति, शिक्षा स्तरे अधीतवन्तः, सकारस्य अग्रे चवर्गः अस्ति इत्यतः सकारस्य शकारः भवति, शिरश्छेद इति भवति. शिरश्छेद टु कट् आफ् द हेड् इत्यर्थः. चोरस्य शिरश्छेदं कर्तुं, तथा तस्य मस्तकं कर्तयितुं भटान् आदिष्टवान् इत्यर्थः. अग्रे सुब्रह्मण्यं महोदय.
सुन्दर सुन्दर पूर्वपदस्य प्रातिपदिकं सुन्दर, उत्तरपदस्य प्रातिपदिकं वदन, सन्धिः अत्र नास्ति. स्त्रीलिङ्गं द्वितीयाविभक्ति एकवचनं, सुन्दरवदनाम्.
उत्तमम्, स्त्रीलिङ्गे द्वितीया विभक्तिः एकवचनं, सुन्दरवदनां युवतिं दृष्ट्वा सः आकृष्टः. यस्याः वदनं बहु सुन्दरम् अस्ति सा युवतिः सुन्दरवदना. तां सुन्दरवदनां युवतिं दृष्ट्वा सः आकृष्टः. उत्तमम्, अग्रिमं रामकृष्णराव महोदय.
शब्दस्य अर्थस्य च इत्यर्थे पार्वती परमेश्वरं च नमामि. पार्वती परमेश्वरं, पार्वती परमेश्वरं शब्दस्य
तत्र किं वचनं भवति? पार्वती परमेश्वर
स्त्रीलिङ्ग, स्त्रीलिङ्ग पार्वती परमेश्वर पुल्लिङ्गं
पुल्लिङ्गं
वचनं द्वितीया विभक्ति
द्वितीय विभक्ति वचनम कति कति जनाः सन्ति तत्र
पार्वती परमेश्वर द्विवचन
द्विवचनम् द्वौ स्तः किल अतः द्विवचनम् तर्हि किं भवति
पार्वती परमेश्वरौ
सम्यक् पार्वती परमेश्वरौ
नमामि
उत्तमम् शब्दस्य अर्थस्य च
शब्दार्थस्य च शब्दस्य अर्थस्य शब्द अर्थ शब्दार्थ
तत्र का विभक्तिः
शब्द सप्तमी षष्टि विभक्ति
पुनः किं वचनम्
षष्टि विभक्ति एकवचनम्
कति पदार्थाः सन्ति किं किम् अस्ति तत्र
शब्द अर्थ द्विवचन शब्द शब्दार्थौ
षष्ठी विभक्तौ
शब्दार्थयोः
उत्तमं शब्दार्थयोः सिद्ध्यर्थं
पार्वती परमेश्वरम् पार्वती परमेश्वरौ च नमामि
उत्तमम् अतः तत्र आदौ शब्दस्य अर्थस्य शब्द अर्थ इत्यस्ति तत्र सन्धिः सवर्णदीर्घसन्धिः शब्दार्थ अत्र पुल्लिङ्गं षष्ठी विभक्तिः द्विवचनं शब्दः अर्थः इति द्वयमस्ति अतः द्विवचनम् अतः शब्दार्थयोः इति भवति पार्वतीं परमेश्वरं तत्र पार्वती परमेश्वर इति प्रातिपदिकं सन्धिः नास्ति द्वितीया विभक्तिः द्विवचनं तत्रापि पार्वती अस्ति परमेश्वरः अस्ति द्वौ स्तः अतः द्विवचनम् शब्दार्थयोः सिद्ध्यर्थं पार्वती परमेश्वरौ नमामि इति वाक्यम् सम्यक् अग्रिमं गीता भगिनी
मातुः आज्ञा मातुः प्रातिपदिकं मातृ आज्ञा आज्ञा प्रातिपदिकं मात्राज्ञा यन्सन्धिः भवति स्त्रीलिङ्गं प्रथमा एकवचनं मात्राज्ञा सर्वैः पालनीया
उत्तमं मात्राज्ञा सर्वैः पालनीया सम्यक् अग्रिमं महालक्ष्मी भगिनी
जननी एकवचनं नपुंसकलिङ्गं
जननी इति किं लिङ्गं
स्त्रीलिङ्गं
स्त्रीलिङ्गम् अत्र सन्धिः अस्ति वा जगत् जननी
नास्ति
भवति किल जगत् तकारः अस्ति तस्य
जगत् जननी
जष्ट्वसन्धिः श्चुत्वसन्धिः तकारस्य दकारः दकारस्य जकारः भवति जष्ट्वसन्धिः श्चुत्वसन्धिः जगज्जननी इदानीं स्त्रीलिङ्गं का विभक्तिः सम्यक् चतुर्थी विभक्तिः विभक्तिः एकवचनं अतः किं वाक्यं
जगत् जननी
वाक्यं पूर्णं वाक्यं
श्रीमात्रे नमः
जगज्जनन्यै श्रीमात्रे नमः जगज्जनन्यै तत्र जगत् जननी तकारस्य आदौ जष्ट्वेन दकारः भवति जगद् जननी अनन्तरं श्चुत्वे जगज्जननी जगज्जननी चतुर्थी विभक्तौ जगज्जनन्यै इति भवति अग्रिमं राजीव महोदय अस्माकं गृहेषु संस्कृतेन एव सम्भाषणं कुर्मः राजीव महोदय न श्रूयते न श्रूयते माइक्रोफोन एकवारं पश्यतु राहुल महोदय
हरि ओम् अस्माकं गृहेषु पूर्वोत्तरपदयोः प्रातिपदिकम् अस्मत् गृह सन्धिः क्रियते चेत् अस्मत् अत्र सन्धिः नास्ति लिङ्गवचनविभक्तौ नपुंसकलिङ्गे सप्तमी विभक्ति बहुवचनम् अस्मत् गृहेषु संस्कृतेन एव सम्भाषणं कुर्मः
सम्यक् अस्मत् गृहेषु संस्कृतेन एव सम्भाषणं कुर्मः इति अस्मद् गृहेषु इति समस्तपदं भवति सम्यक् तत्र एकः प्रश्नः अस्ति पीतक्षीराः इत्यस्य अर्थः कः इति ये बालाः क्षीरं पीतवन्तः ते पीतक्षीराः पीतं क्षीरं यैः सो those by whom milk has been drunk. I mean, it sounds very odd in English. Kintu saha arthaha. Those who have finished drinking milk. Iti arthaha. Madgriheshu iti bhavativa iti. Tatra kashtana visheshaha asti. Mama griham madgriham. Asmakam griham asmadgriham. सः विशेषः अस्ति यदा एकवचनं भवति तदा मत् इति आदेशः भवति वस्तुतः अस्मद् इत्येव किल प्रातिपदिकम् अस्मद् इत्येव भवेत् किन्तु एकवचनान्तं यदा भवति तदा विशेषः मद्गृहं मत्पुत्री इत्यादि मम इति यदा भवति तदा मत् इति भवति अस्मद् इत्यस्ति चेत् तत्तु भवति बहुवचने अन्यः प्रश्नः शिरच्छेदः वा शिरश्च्छेदः वा इति शिरश्च्छेदः एव युक्तः तत्र विशिष्य बहुषु प्रादेशिकभाषासु तासां प्रभावेण कदाचित् संस्कृते अपि शिरच्छेद इति श्रूयते किन्तु वस्तुतः शिरश्च्छेदः एव यतोहि सकारः सकारस्य श्रुत्वं भवति चेत् षकारः भवति शिरश्च्छेद इत्येव समीचीनं रूपम् अन्ये केऽपि प्रश्नाः तत्र शिरश्च्छेदम् इत्यस्य द्विवचनं किम् इति द्वितीयावचनम् इति इत्युक्ते द्वितीया विभक्तिः चेत् शिरश्च्छेदं प्रथमा विभक्तौ शिरश्च्छेदः द्वितीया विभक्तौ शिरश्च्छेदं द्विवचनं चेत् रामशब्दवत् यथा रामः रामौ रामाः शिरश्च्छेदः शिरश्च्छेदौ शिरश्च्छेदाः इति भवति अस्तु पुनः तत्र सन्धौ प्रश्नः शिरश्च्छेद चर्त्वं न भवति वा इति तत्र सः कर्क चर्वर्णः एव चर्त्वम् इत्युक्ते वर्गस्य प्रथमवर्णः तथैव श ष स तदपि चर् वर्णः एव चर् इति व्याकरणे प्रत्याहारः इति कथ्यते वर्गस्य प्रथमवर्णः तथा श ष स एते चर्वर्णाः अत्र शकारः अस्ति चेत् शकारः एव तस्य पुनः चर्त्वं न भवति सकारः अस्ति चेत् सकारः एवं षकारः अस्ति चेत् तत्र भिन्नं भवति चर्त्वं न भवति तत्र शिरश्च्छेदः इत्येव अग्रे गच्छामः अस्माभिः समासस्य प्रभेदाः गतवर्गे दृष्टाः प्रधानतया समासः चतुर्विधः अव्ययीभावः तत्पुरुषः बहुव्रीहिः द्वन्द्वः इति तत्र तत्पुरुषसमासे पुनः चत्वारः विभागाः सन्ति, सामान्यतत्पुरुषः, कर्मधारयः, द्विगुः, नञ् प्रभृतयः इति चत्वारः विभागाः सन्ति. कदाचित् केषुचित् पुस्तकेषु षड्विधाः समासाः इति कथयन्ति, तत्र मुख्यतया चत्वारः समासाः, ततः कर्मधारयः द्विगुः इति कदाचित् ते अपि प्रमुखाः इत्यतः पृथक् गणनां कुर्वन्ति, किन्तु वस्तुतः चत्वारः एव समासाः. एते सर्वेपि तत्पुरुषसमासस्य एव प्रभेदाः. इदानीम् एतेषु आदौ सामान्यतत्पुरुषः इति यः समासः अस्ति तस्य अध्ययनं कुर्मः वयम्. कोविदस्य पाठ्यपुस्तकेषु बहु स्थूलरूपेणैव समासानां अध्ययनम् अस्ति. इत्युक्ते सामान्यतत्पुरुषः इति कानिचन उदाहरणानि दीयन्ते, तेषां विग्रहवाक्यं समासः इति ज्ञायते चेत् परीक्षादृष्ट्या अलम्. पृथक् पृथक् समासस्य विशिष्टं विवरणं नास्ति, कस्य पदस्य भवति कस्य न भवति इति. किन्तु तत्र नियमाः सन्ति, सर्वेषां पदानां समासः न भवति. समासप्रकरणे नियमाः भवन्ति, पूर्वपदं किं भवेत्, उत्तरपदं किं भवेत् इति नियमाः सन्ति. अतः अस्मिन् वर्गे वयं किञ्चिद्वा नियमं जानीमः, पूर्णतः इति न, सर्वे नियमाः इति न, किन्तु प्रतिसमासं सामान्यनियमान् वा ज्ञात्वा अग्रे गच्छामः इति. यतोहि केवलं परीक्षादृष्ट्या अध्ययनमिति न, अग्रे यदा भवन्तः अन्यानि काव्यानि वा शास्त्राणि वा पठितुम् इच्छन्ति तदा समासज्ञानं बहु उपयोगाय भवति. अतः प्रतिसमासम् एकैकं वा द्वयं वा नियमं विज्ञाय अग्रे गच्छामः. सामान्यतत्पुरुषः इति कथ्यते, तत्र सप्तप्रभेदाः सन्ति. प्रथमा तत्पुरुषः, द्वितीया तत्पुरुषः, तृतीया तत्पुरुषः, चतुर्थी तत्पुरुषः, पञ्चमी तत्पुरुषः, षष्ठी तत्पुरुषः, सप्तमी तत्पुरुषः इत्येवं सप्तप्रभेदाः सन्ति. तत्र प्रथमा तत्पुरुषः इति यः कथ्यते, तत्र कश्चन क्लेशः अस्ति. व्याकरणरीत्या सः एकदेशीसमासः इति कथ्यते, किन्तु इदानीं किमर्थम् एवं तेषां नियमः, नामानि किमर्थम् एवं दत्तानि इति चेत्, तत्र पूर्वपदस्य का विभक्तिः, विग्रहवाक्ये अथवा तत्र समस्तपदे पूर्वपदं यदस्ति, समस्तपदे पूर्वपदस्य, विग्रहवाक्ये का विभक्तिः भवति. यतोहि समस्तपदे विभक्तिः न श्रूयते, समस्तपदे यत् पूर्वपदमस्ति तस्य का विभक्तिः इति पूर्वपदस्य विभक्तिम् आश्रित्य समासस्य नाम क्रियते. यत्र पूर्वपदं ग्रामम् इति द्वितीया विभक्तिः, सः द्वितीया तत्पुरुषः. अर्धं, दिनस्य अर्धं, तत्र अर्धम् इति प्रथमान्तम्, अतः प्रथमा तत्पुरुषः. देवस्य इति षष्ठी, अतः षष्ठी तत्पुरुषः इत्येवं पूर्वपदस्य विभक्तिम् आश्रित्य समासस्य नाम दत्तमस्ति सामान्यतत्पुरुषे. उत्तरपदे तु यथा मया उक्तं, केवलं यदा विग्रहवाक्यं लिखामः तदा प्रथमा विभक्तौ भवति. अत्र एव विशेषः, प्रथमा तत्पुरुषे तु षष्ठी विभक्तौ अस्ति, तद्विहाय अन्यत्र सर्वत्र प्रथमा विभक्तौ लिख्यते सामान्यतः विग्रहवाक्यम्. एतान् सप्त प्रभेदान् एकैकशः इदानीं पश्यामः. तत्र प्रथमा तत्पुरुषः इत्यस्ति. प्रथमा तत्पुरुषः कदा भवति? तत्र कानिचन पदानि सन्ति, पूर्व, अपर, अधर, उत्तर, अर्ध. एतानि पदानि पूर्वपदानि भवन्ति, पूर्वपदम् एतेषु एकं भवति. अनन्तरम् उत्तरपदं षष्ठ्यन्तं सुबन्तं भवति. अस्मिन् समासे पूर्वपदम् एतेषु एकम्. पूर्व इत्यस्य पूर्वस्यां पूर्वादिक् इत्यर्थः अस्ति. सो पूर्व केन् मीन् ईस्टर्न्, इट् केन् आल्सो मीन् अर्लियर् आर् फार्मर् आर् द फस्ट् पोर्शन् आफ् समथिङ्ग् इस् आल्सो काल्ड् पूर्व. अपर इत्यस्य लेटर् इत्यर्थः अस्ति, वेस्टर्न् इत्यर्थः अपि अस्ति. अधर लोवर् अधस्तनभागः इत्यर्थः. उत्तर इस् अगेन् द लेटर् पोर्शन् आर् द नार्दर्न् पोर्शन्, उभयोः अर्थयोः अस्ति. अर्धम् इति हाफ् इत्यर्थे. एते शब्दाः भवन्ति. उत्तरपदं षष्ठ्यन्तं सुबन्तं भवति. उदाहरणानि पश्यामः. पूर्वं कायस्य, कायः नाम शरीरं, शरीरस्य पूर्वभागः, द अप्पर् हाफ् आर् द फ्रण्ट् हाफ् आफ् द बाडि. सो अत्र पूर्वपदं पूर्व इत्यस्ति. अनन्तरम् उत्तरपदं कायस्य इति षष्ठी विभक्तौ अस्ति. पूर्वकायः इति समस्तपदम्. अपरं गृहस्य, गृहस्य अपरः भागः, द बैक पोर्शन् आफ् द हौस्, अपरगृहम्. अधरं पर्वतस्य, पर्वतस्य द लोवर् पोर्शन् आफ् द माउंटेन्, अधरपर्वतः. उत्तरं शालायाः, उत्तरशाला, द लेटर् पोर्शन् आर् द नार्दर्न् पोर्शन् आफ् द हाल्, उत्तरशाला. अर्धं फलस्य, अर्धफलं, हाफ् आफ् अ फ्रूट्. एवम् एते शब्दाः यदा पूर्वपदं भवन्ति, अनन्तरं षष्ठ्यन्तं सुबन्तम् उत्तरपदं भवति, तत्र प्रथमा तत्पुरुषः इति समासः भवति. अयं सामान्यनियमः, सर्वः नियमः अत्र उक्तः इति नास्ति. अत्र द्वित्रैः पृष्टं, तत्र उत्तरं शालायाः, किमर्थम् उत्तरा शालायाः इति न इति. तत्र पूर्व, अपर, अधर, उत्तर, अर्धशब्दः सर्वदा नपुंसकलिङ्गः एव, अर्धम् इत्येव. किन्तु अन्यानि पदानि विशेषणानि, किन्तु अत्र विशेषणत्वेन न उपयुज्यते. अत्र उत्तर इति शालायाः विशेषणं न, इट् इस् नाट् क्वालिफैयिङ्ग् शाला. शालायाः उत्तरभागः, पर्वतस्य अधरभागः, गृहस्य अपरभागः, कायस्य पूर्वभागः इत्यर्थः. अतः एतेषां विशेष्यं किमपि नास्ति अत्र. पूर्वोत्तरपदयोः विशेषणविशेष्यत्वं न. विशेष्यं यदा अस्ति तदा तदाश्रित्य लिङ्गं भवति, विशेष्यं यदा नास्ति तदा सामान्ये नपुंसकलिङ्गं भवति. अतः प्रथमा तत्पुरुषे पूर्वपदं नपुंसकलिङ्गे एव भवति. यदा अग्रे पठन्ति तदा इतोपि अधिकं ज्ञातुमर्हन्ति. किन्तु अत्र पूर्वम् इति नपुंसकलिङ्गे एव प्रयोगः क्रियते. इदानीम् अग्रे अग्रे गमनात् पूर्वम् अहम् एकं दर्शयितुमिच्छामि. कैश्चित् पृष्टम् अत्र समासः इति गतवर्गे मया दर्शितम्. अस्माकं मल्टिमीडिया साधनमस्ति समासानाम् अध्ययनार्थं. तत्र आदौ पूर्वसिद्धता इत्यत्र वाक्यं नाम किं, पदं नाम किम्, प्रकृतिप्रत्ययः, सुप्रत्ययाः इत्युक्ते किम् इति सर्वमपि अस्ति. अनन्तरं समासस्य विषये, कदा समासः भवति, समासे के के अवयवाः, अर्थात् पूर्वपदम् उत्तरपदम् इत्यादि, विग्रहवाक्यं नाम किम् इत्यादि उच्यते. अनन्तरं प्रत्येकं समासस्यापि विवरणम् अस्ति. अत्र पश्यन्ति चेत् तत्पुरुषः, तत्पुरुषे सामान्यतत्पुरुषः, कर्मधारयः, द्विगुः इत्यादि सर्वे प्रभेदाः सन्ति. पुनः सामान्यतत्पुरुषे प्रथमा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी, सर्वत्रापि संस्कृतेनापि विवरणमस्ति, आङ्ग्लभाषया अपि विवरणमस्ति. अत्र आदौ सामान्यतत्पुरुषः सप्तधा, सप्तप्रभेदाः, तेषाम् उदाहरणमस्ति. अग्रे एकैकस्यापि समासस्य इदानीं प्रथमा तत्पुरुषः. आदौ वाक्यानि दीयन्ते. मया पुनः पुनः उच्यते, समासानाम् अर्थावगमनं वाक्येन एव भवति. उदाहरणं पूर्वकायः इत्युक्ते कथं प्रयोगः? नद्यां स्नानं कुर्वतः गजस्य पूर्वकायः जले मग्नः अस्ति. कः अर्थः? गजः नद्यां स्नानं कुर्वन् अस्ति, तस्य शरीरस्य प्रथमभागः, पूर्वभागः जले निमग्नः, केवलं पृष्ठभागः एव उपरि दृश्यते इत्यर्थः. पूर्वं कायस्य पूर्वकायः. एवमेव अस्माकम् अपरग्रामः, कुत्र गतं, क्षम्यताम्, अस्माकम् अपरग्रामः अरण्येन आवृतः. अपरः ग्रामस्य, ग्रामस्य अपरभागः अरण्येन आवृतः अस्ति. अपरं ग्रामस्य अपरग्रामः. बालाः अधरपर्वतस्य आरोहणेन एव श्रान्ताः. पर्वतम् आरोढुं प्रस्थिताः, अधस्तनभागस्य आरोहणेनैव तेषां श्रान्तिः अभवत्, पूर्णं शिखरं गन्तुं न शक्तवन्तः इत्यर्थः. अस्य विद्यालयस्य उत्तरशालायां सङ्गणकप्रकोष्ठम् अस्ति. उत्तरं शालायाः, तस्य उत्तरभागे सङ्गणकप्रकोष्ठं, कम्प्यूटर् लैब् अस्ति. अर्धपिप्पली अपि श्लेष्महारिणी भवति. पिप्पली इति आयुर्वेदे उपयुज्यते. तत्र अर्धं पिप्पल्याः अर्धपिप्पली इत्यस्ति. तस्य आङ्ग्लभाषायां विवरणमपि भवति, अनुवादः अपि भवति तेषां वाक्यानाम्. एवं वाक्यस्य उदाहरणं ज्ञात्वा अग्रे गच्छामः चेत् नियमः दीयते. प्रथमा तत्पुरुषः, तत्र पूर्व, अपर, अधर, उत्तर, अर्ध इति पूर्वपदं भवति. उत्तरपदम् अवयवीवाचकं, तत्र विशेषः अस्ति, विवरणं दीयते. अवयवी इत्युक्ते कस्यचित् भागः यः अस्ति. पूर्वं कायस्य, सो कायः इति इट् इस् अ होल्, अ पार्ट् आफ् द होल्, दट् इस् वाट् दिस् समास मीन्स्. उदाहरणं विग्रहवाक्यम् इत्यादि अत्र दीयन्ते. अत्र अवगमनार्थम् एनिमेशन् अपि अस्ति. अत्र किं भवति? एकः हरिणः अस्ति, तत्र पूर्वम् इत्युक्ते अयं पूर्वः भागः. कायस्य इति उत्तरपदम् अस्ति, तत्र पूर्वकाय उभयोः प्रातिपदिकं स्वीक्रियते. अनन्तरं पूर्व इति पूर्वपदं, काय इति उत्तरपदम्, उभयोः मेलनेन समस्तपदं भवति. तदा पूर्वकायः इत्युक्ते देहस्य पूर्वभागः इत्यर्थः भवति इति समासस्य ज्ञानार्थं एनिमेशन् अपि दीयते. अन्ये नियमाः सन्ति चेत् अग्रे अन्ये नियमाः अपि दीयन्ते. इतोपि उदाहरणानि भवन्ति. अनन्तरम् एवं प्रत्येकं समासस्यापि पूर्णं विवरणम् अत्र प्राप्तुं शक्यते. सर्वेषामपि समासानाम् अनेन क्रमेण अत्र द्रष्टुं शक्यते. ततः अभ्यासाः बहवः सन्ति, विशेषनियमाः, क्रीडाः, समासम् आश्रित्य क्रीडाः इति सर्वम् अस्ति. एतत् समासः इति सी डि अस्ति तथा वेब् वर्षन्, तदेव सुलभं भवेत्. यु केन् एक्सेस् इट् आन्लैन्. एतत् ये प्राप्तुमिच्छन्ति ते अस्माकं वेब्सैट् digitalsanskritguru.com इति अस्माकं वेब्सैट् अस्ति, तत्र प्राप्तुं शक्नुवन्ति. पूर्वकायः इति कालिदासेन तत्र बहु सुन्दरः श्लोकः अस्ति, तत्र प्रयुज्यते. ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः, पूर्वकायं पश्चार्धेन प्रविष्टः शरपतनभिया इति. तत्र कालिदासेन पूर्वकाय इति शब्दस्य प्रयोगः बहु सम्यक् कृतः अस्ति. हरिणस्य पूर्वकायस्य विषये एव सः वदति. इदानीम् अभ्यासमेकं कुर्मः. अर्धम् इति पूर्वपदमस्ति, तस्य भिन्नैः शब्दैः सह समासः यदा क्रियते तदा किं भवति. यथा पादस्य, अर्धं पादस्य, हाफ् आफ् अ फुट् इत्यस्ति, तत्र किं भवति इति वक्तव्यम्. ये वक्तुमिच्छन्ति हस्तम् उन्नयन्तु. अर्धं पादस्य, लता भगिनी.
अर्धपादः.
अर्धपादः, सम्यक्. अर्धं राज्यस्य. रामानुजं
नमस्ते. अर्धराज्यम्.
अर्धराज्यम्, अर्धं राज्यस्य अर्धराज्यम् उत्तमम्. प्रिया, प्रिया भगिनी, यू हैव टू अनम्यूट योरसेल्फ.
यस.
अर्धं भूमेः.
अर्धभूमिः.
अर्धभूमिः, सम्यक्. अग्रे अर्धं मासस्य. रामनाथन्.
अर्धमासः.
अर्धमासः, अर्धं मासस्य अर्धमासः. अर्धं लेखन्याः. शरण्या. अन्म्यूट् योरसेल्फ. सन्तोष्. अर्धं लेखन्याः न श्रूयते. सन्तोष् महोदय. श्रीमती. श्रीमती भगिनी.
अर्धलेखनी.
अर्धलेखनी, सम्यक्. अत्र दर्शनेनैव एकः नियमः सर्वैः ज्ञातः स्यात्. तत्पुरुषसमासे समस्तपदस्य लिङ्गम् उत्तरपदस्य लिङ्गम् अनुसृत्य भवति. उत्तरपदस्य यत् लिङ्गं तदेव लिङ्गं समस्तपदस्य अपि भवति. अत एव सर्वत्र अर्धम् इत्यस्ति. पादः इति पुल्लिङ्गे अर्धपादः. राज्यम् अर्धराज्यम्. भूमिः अर्धभूमिः. मासः अर्धमासः. लेखनी अर्धलेखनी. अर्धभूमिः अर्धलेखनी इति स्त्रीलिङ्गे. अर्धराज्यम् इति नपुंसकलिङ्गे. अर्धपादः अर्धमासः इति पुल्लिङ्गे. अयं तत्पुरुषसमासस्य नियमः. तत्पुरुषसमासे वित् अ फ्यू एक्सेप्शन्स्, तत्पुरुषसमासे समस्तपदस्य लिङ्गम् उत्तरपदस्य लिङ्गम् अनुसृत्य भवति. राज्ञः पुत्रः, राजपुत्रः. पुत्रः इति पुल्लिङ्गे, अतः राजपुत्रः अपि पुल्लिङ्गे. राज्ञः पुत्री, राजपुत्री. राज्ञः गृहं राजगृहम्। समस्तपदस्य लिङ्गं किं भवति? उत्तरपदस्य यद्लिङ्गं तदेव लिङ्गं भवति। एवमेव पूर्वं ग्रामस्य पूर्वग्रामः, पूर्वं शालायाः पूर्वशाला, पूर्वं गृहस्य पूर्वगृहम्। तत्पुरुषसमासे लिङ्गं किम् इति चेत् उत्तरपदस्य यत् लिङ्गं तदेव लिङ्गं भवति। स्पष्टम्? अग्रे इतोपि एकम् अभ्यासं कुर्मः। अत्र वाक्यानि दीयन्ते, तत्र समस्तपदमस्ति, तस्य विग्रहवाक्यं वक्तव्यम्। दुर्योधनः पाण्डवेभ्यः अर्धराज्यं न दत्तवान्। अर्धराज्यं पूर्वमेव अस्ति। किमपि वदन्ति वा? दुर्योधनः पाण्डवेभ्यः अर्धराज्यं न दत्तवान्। वेङ्कटरमणन् अय्य,
दुर्योधनः पाण्डवेभ्यः अर्धं राज्यस्य न दत्तवान्।
अर्धं राज्यस्य अर्धराज्यं, तस्य द्वितीयाविभक्ति प्रयोगः। माधवः पूर्वमासे देहल्यां कार्यं करोति, उत्तरमासे बेङ्गलूरुनगरे। श्रीराम कृष्णमूर्ति महोदय, पूर्वमासे,
पूर्वं मासस्य,
उत्तरमासे,
उत्तरं मासस्य,
कः अर्थः वाक्यस्य?
माधवः मासस्य पूर्वं देहल्यां कार्यं करोति, अनन्तरं उत्तर उत्तरसमये बेङ्गलूरु मध्ये नगरे कार्यं करोति।
सो द earlier, the first portion of the month, he works from Delhi. The later portion of the month, he works from Bangalore. So, tatra purvam masasya purvamasaha tasmin. Yatha maya uktam, adau vigraha vakyam prathama vibhaktau iti diyate, anantaram yadi anya vibhaktihi apekshyate, tadavayam sarvanama padam yojayamaha vigrahe. Vigraha vakyam प्रथमाविभक्तेः दत्त्वा विभक्तिनिर्देशार्थं सर्वनाम्नः, पूर्वं मासस्य पूर्वमासः तस्मिन् पूर्वमासे, एवम् उत्तरं मासस्य उत्तरमासः तस्मिन् उत्तरमासे, इयं विग्रहलेखनस्य शैली भवति। अग्रिमं वाक्यम्, अधरवृक्षे सर्पकोटरः अस्ति।
रोहन् नमो नमः। अत्र अधरवृक्षे, अधरस्य वृक्षः, तस्मिन् सर्पकोटरः अस्ति।
द्वितीय उत्तरपदं षष्ठी, प्रथमपदं प्रथमा विभक्तिः, पूर्वपदं
पूर्वपदम्। Tasmin, because Vriksha word is in...
That is word. That we'll add later. That is why we do that, to avoid confusion. So, first we do the Vigraha, and then we add the Vibhakti.
Adharam Vrikshasya will be the Vigraha. Then to explain the Vibhakti, will say into bracket Tasmin.
Correct. So, Adharam Vrikshasya Tasmin. अधरवृक्षे, सो अधरं वृक्षस्य अधरवृक्षः तस्मिन् अधरवृक्षे, वृक्षस्य अधोभागे, अधस्तनभागे, सो इन् द लोवर् पोर्शन् आफ् द ट्री सर्पकोटरः अस्ति इत्यर्थः। अहम् अर्धवेतनं भविष्यदर्थे रक्षामि। नीला,
अहम् अर्धं वेतनस्य द्वितीया विभक्ति एकवचन, तम भविष्य अर्थे रक्षामि.
सम्यक्. अर्धं वेतनस्य तत्. सो अगेन एक्चुअली हियर द्वितीया विभक्तिः तदर्थं तत् इति योजनीयं. नपुंसकलिङ्गे प्रथमा द्वितीया विभक्त्योः भेदः न ज्ञायते, वस्तुतः योजनीयम्. अर्धं वेतनस्य, सो ऐ सेव् हाफ् आफ् मै सेलरी फार् द फ्यूचर् इत्यर्थः. अर्धं वेतनस्य अर्धवेतनम् इति भवति. अत्र केचन प्रश्नाः सन्ति. तत्र तदेव अत्र कश्चित् प्रश्नः अस्ति, पूर्वदिनं, तत्र पूर्वं दिनस्य इति भवति वा, अथवा पूर्वं दिनम् अर्लियर् डे इति भवति वा, आर् द फस्ट् पोर्शन् आफ् अ डे इति भवति वा इति प्रश्नः. तत्र उत्तरम् अर्थम् आश्रित्य भवति. यदि उदाहरणार्थं सः पूर्वदिने किमपि कृतवान् इति उच्यते, तदा प्रसङ्गं दृष्ट्वा एव अर्थः ज्ञातव्यः. सः दिनस्य पूर्वभागे किमपि कृतवान् वा अथवा पूर्वस्मिन् दिने कृतवान् वा. यदि पूर्वं दिनं पूर्वदिनम् इति समासः भवति, सः कर्मधारयसमासः, तस्य अर्थः भिन्नः. तत्र पूर्वम् इति दिनस्य विशेषणं भवति. अत्र तु पूर्वं दिनस्य पूर्वदिनम् इत्युक्ते प्रातःकाले दिनस्य प्रथमभागे किञ्चित् कृतवान् इत्यर्थः. समस्तपदं दृष्ट्वा अर्थः केवलं ज्ञातुं न शक्यते, प्रसङ्गम् आश्रित्य एव वक्तव्यं भवति. अत एव यथा लोकनाथः इति प्रदर्शितं तथा एव भवति. उभयथा अपि शक्यते विवक्षानुगुणम्. अनन्तरम् अन्यः प्रश्नः, केचन शब्दाः लिङ्गद्वये भवन्ति, यथा नगरं नगरी. नगरम् इति नपुंसकलिङ्गे अपि अस्ति, नगरी इति स्त्रीलिङ्गे अपि अस्ति, तदा समस्तपदं किं भवति इति. द्वयमपि भवितुम् अर्हति, अर्धं नगरस्य अर्धनगरम्, अर्धं नगर्याः अर्धनगरी. तत्र उभयं भवति, अर्धनगरम् अर्धनगरी इति. अस्तु, अग्रे द्वितीया तत्पुरुषः. समयः वस्तुतः समाप्तः. दशनिमेषाः सन्ति वा, कुर्मः वा अद्य द्वितीया तत्पुरुषं कुर्मः इति चिन्तितम्. किन्तु अस्तु, एतदेकं दृष्ट्वा समापयामः दशसु निमेषेषु. सरलमेव अस्ति द्वितीया तत्पुरुषः. तत्र द्वितीया तत्पुरुषे पूर्वपदं द्वितीयान्तं भवति, यत्किमपि भवितुमर्हति द्वितीया विभक्तौ भवति. उत्तरपदम् एतेषु शब्देषु, श्रित, अतीत, पतित, गत, अत्यस्त, प्राप्त, आपन्न, एतेषु शब्देषु एकं भवति. श्रितः, आश्रयं स्वीकृतवान्, सो ही हू हस् टेकन् रेफ्यूज् इन् इत्यर्थः. अतीतः, he who is beyond. patitah, fallen into. gatah, gone to a particular place. atyastah, atyastah is crossed something, like crossing a river or crossing a forest. prapta is reached. apanna, tatrapi praptah ityeva arthah. praptah, apannah, samanah arthah. प्रथमा पूर्वपदं द्वितीया विभक्तौ भवति, उत्तरपदम् एतेषु एकं भवति. कृष्णं श्रितः, कृष्णश्रितः, यः कृष्णमेव आश्रयति सः कृष्णश्रितः. दुःखम् अतीतः, दुःखातीतः, बियाण्ड् सोरो. कूपं पतितः कूपपतितः गृहं गतः गृहगतः अरण्यम् अत्यस्तः अरण्यात्यस्तः अरण्यम् अतीत्य गतवान् ही हेस् क्रास्ड् द फारेस्ट् इत्यर्थः लक्ष्यं प्राप्तः लक्ष्यप्राप्तः संशयम् आपन्नः संशयापन्नः ही हू हेस् गाट् अ डौट् सः विशिष्टः प्रयोगः प्राप्त इत्यर्थे एव आपन्न इत्यस्यापि प्रयोगः अस्ति एते शब्दाः यदा उत्तरपदं भवति तदा पूर्वपदं द्वितीयाविभक्तौ भवति तत्र द्वितीया तत्पुरुषसमासः भवति तत्र एकम् अभ्यासं कुर्मः तत्र श्रित इति उत्तरपदमस्ति अत्र पूर्वपदं भिन्नं भिन्नम् अस्ति यथा उक्तं पूर्वपदं यत्किमपि द्वितीयान्तं भवितुम् अर्हति तत्र किं भवति इति पश्यामः अत्र समासस्य इतोपि एकः नियमः ज्ञायते विपश्चित् चैतन्य रामं श्रितः न श्रूयते Please check your microphones when you are in class. It will help you to participate better. Subramanyam, Mahodaya.
Rama Shritaha.
Rama Shritaha. Ramam Shritaha. Rama Shritaha. Atra Ramam Shrita, Rama Shrita. Ramam Shritam, Rama Shritam. Lingatraye api bhavati. Shritaha ityadi visheshanam. Graham gataha, griha gataha. गृहं गता गृहगता गृहं गतं गृहगतं गृहगतं मित्रं गृहगता माता गृहगतः पिता इति लिङ्गत्रये अपि भवति उत्तरपदस्य यत् लिङ्गं तदेव लिङ्गं भवति लक्ष्मीं श्रितः श्रीराम महोदय
लक्ष्मीं श्रितः
प्रातिपदिकं तस्य योजनम् पितरं श्रितः श्रीमती भगिनी
पितरश्रुत
प्रातिपदिकं
पिताश्रुतः
प्रातिपदिकं किं पिता इति प्रथमविभक्तौ एकवचनं मूलशब्दः
पितृश्रुतः
पितृश्रितः समासकरणे सर्वदा प्रातिपदिकं चिन्तनीयम् पितरम् इत्यत्र पितृ इति प्रातिपदिकम् अतः पितृश्रितः अग्रे सुहृदं श्रितः राहुल महोदय सुहृदं श्रितः रमा भगिनी सुहृच्छितः सुहृत् इति प्रातिपदिकं तत्र सन्धिः भवति सुहृत् सुदरिश्चुत्स्व एण्ड् आल्सो छत्वसन्धि सुहृच्छितः सुहृत् श्रित तत्र श्चुत्वं भवति छत्वं भवति सुहृच्छितः इति भवति सम्यक् अग्रे राजानं श्रितः रामकृष्णराव महोदय राजानं श्रितः
राज्ञश्रितः
प्रातिपदिकं किम्
राजन्
वस्तुतः राजन् श्रित इत्यस्ति राजश्रितः सम्यक् किन्तु अत्र नियमः अन्यः नियमः अस्ति समासे सर्वेषु समासेषु पूर्वपदं नकारान्तं चेत् नकारस्य लोपः भवति यत्र प्रातिपदिकं पूर्वपदं नाम प्रातिपदिकं पूर्वपदस्य प्रातिपदिकं नकारान्तं चेत् नकारस्य लोपः भवति राज्ञः पुत्रः तत्र राजन् पुत्र इत्यस्ति नकारस्य लोपे राजपुत्रः एवमेव आत्मनः ज्ञानम् आत्मन् ज्ञान तत्र नकारस्य लोपे आत्मज्ञानम् कर्मणां त्यागः कर्मन् त्याग नकारस्य लोपे कर्मत्यागः नाम्नां संकीर्तनम् नामन् इति प्रातिपदिकं संकीर्तन नकारस्य लोपे नाम संकीर्तनम् सर्वेषु समासेषु यदि पूर्वपदस्य प्रातिपदिकं नकारान्तं भवति तर्हि नकारस्य लोपः भवति सन्धिः इव इट् इस् लैक् सन्धि अट् द सन्धि स्टेप् पूर्व उत्तरपदयोः प्रातिपदिकं स्वीकुर्मः अग्रे नकारस्य लोपः नकारस्य लोपः कर्तव्यः सर्वेषु समासेषु एतदेकं सर्वदा स्मर्तव्यम् अतः राजानं श्रितः राजन् श्रित इति भवति अग्रे राजश्रितः अनन्तरम् आत्मानं श्रितः अत्रापि आत्मन् इति नकारान्तम् राधा
आत्मन् इति प्रातिपदिकम् अतः आत्मश्रितः
आत्मश्रितः आत्मानः श्रितः आत्मश्रितः भगवन्तं श्रितः लता भगिनी
श्रुतः भगवच्छ्रुतः
भगवच्छ्रितः समानम् अत्रापि भगवत् सुहृत् इत्यत्र यथा तथा सन्धिः भवति श्चुत्वसन्धिः छत्वसन्धिः भगवच्छ्रितः गुणिनं श्रितः ज्योति गुणिनं श्रितः
गुणिश्रुतः
गुणिन् इति प्रातिपदिकं नकारस्य लोपे गुणिश्रितः अत्र समासे क्लेशः नास्ति यत्र सन्धिः तत्र सन्धिः कर्तव्यः नकारान्तं प्रातिपदिकमस्ति चेत् नकारस्य लोपः कर्तव्यः अयमेव द्वितीया तत्पुरुषः अग्रे अत्र केचन प्रश्नाः सन्ति द्वित्राः एव प्रश्नाः उत्तरं दत्त्वा अद्यतनं समापयामि एकम् अन्यशब्दाः सन्ति चेत् यथा रासभरोहणम् इत्यत्र न भवति वा इति तत्र रासभस्य रोहणं रासभरोहणम् इति षष्ठी समासः अन्यत्र द्वितीया तत्पुरुषः न भवति अन्ये केचन सन्ति इतोपि एतदतीत्य द्वित्राणि पदानि सन्ति अन्यत्र द्वितीया तत्पुरुषः न भवति आश्रितः इत्यस्य अपि श्रितः इव भवति उपसर्गः अस्ति चेत् तत्रापि भवति तावन्तः एव प्रश्नाः इति चिन्तयामि अद्यतनसङ्क्षेपः सामान्यतत्पुरुषस्य सप्त प्रभेदाः अस्माभिः दृष्टाः प्रथमा तत्पुरुषे कः नियमः इति ज्ञातवन्तः पूर्व अपर अधर उत्तर अर्ध एतेषां शब्दानाम् एते शब्दाः पूर्वपदं भवन्ति षष्ठ्यन्तम् उत्तरपदं भवति तत्र समासः भवति उदाहरणानि दृष्टवन्तः द्वितीया तत्पुरुषे पूर्वपदं द्वितीयान्तं भवति उत्तरपदं श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्न एतेषु एकं भवति समासस्य सामान्यनियमाः एतद् इतोपि मुख्यं प्रथमं तत्पुरुषसमासे लिङ्गम् उत्तरपदम् अनुसरति उत्तरपदस्य यत् लिङ्गं तदेव लिङ्गं भवति द्वितीयं पूर्वपदस्य प्रातिपदिकं नकारान्तं चेत् नकारस्य लोपः भवति सर्वेषु समासेषु केवलं तत्पुरुषे इति न अयं नियमः सर्वेषु समासेषु भवति एतदाधारेण केचन अभ्यासाः भवन्ति कृत्वा आगच्छन्तु अग्रिमवर्गे तृतीया चतुर्थी इत्यादि तत्पुरुषान् पश्यामः श्वः एप्रिल् मासस्य षष्ठे दिनाङ्के वर्गः भवति रात्रौ अष्टवादने. काव्यांशान् अलङ्कारान् पश्यामः. अद्यतन अन्तिमः प्रश्नः द्वित्रैः पृष्टं, तत्पुरुषः इत्युक्ते किम् इति. तत्र समासेषु समासनाम्नाम् अर्थः नास्ति. यद्यपि तस्य पुरुषः तत्पुरुषः इति तत्पुरुषसमासे एव तत् पदमस्ति इति वदन्ति, तस्य विशिष्य कोऽपि अर्थः नास्ति. एवं बहुव्रीहिः इत्यत्रापि बहुव्रीहिसमासं वदन्ति, अर्थः नास्ति तत्पुरुषस्य वा बहुव्रीहेः वा. अव्ययीभावः इत्यत्र अर्थः अस्ति. तत्र समस्तपदम् अनव्ययमपि अव्ययं भवति इत्यतः अव्ययीभावः. द्वन्द्वः, द्वन्द्वः इत्युक्ते द्वयोः योजनं, बहूनाम् अस्ति चेदपि सः द्वन्द्वः इत्येव. अतः तत्पुरुषं, तत्पुरुषः इति पदस्य कोऽपि अर्थः नास्ति. इतोपि एकः प्रश्नः अस्ति, कः समासः तत्पुरुषः इति. वस्तुतः तत्र तत्पुरुषसमासस्य लक्षणं, वन् characteristic which applies to all tatpurusha samasas is very difficult. It is not there at all. Anyan samasan jani maha tadbhinnam sarvam api tatpurushe asti. Punaha prayaha samasanam ante etad vishayam punaha vadami. Avyayi bhavaha tatpurushaha bahuvrihihi dvandvaha etayoho samanya lakshanam kim. The question was, we are looking at individual samasas and what they are. What does tatpurusha mean as a whole? So there is no simple answer to it. So tatpurusha is just a name given to a set of samasas. It is not a name which has, you know, a meaning, a particular meaning. They are called tatpurusha because of this. Iti nasti. Samase tadrishi vyavastha nasti. अस्य विषये पुनः वी विल् स्टडी आल् द समासास् अण्ड् कम् बेक् टु दिस् क्वश्चन्. ओके, सर्वेभ्यः श्वः युगादिपर्व अस्ति, नूतनसंवत्सरस्य शुभाशयाः युगादिपर्वणश्च. श्वः मिलामः. गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो.